ओम नमो भगवते वासुदेवाय। अथ चतुर्दशोऽध्यायः। युधिष्ठिर उवाच, गृहस्थ एतां पदवीं विधिना येन चाञ्जसा, याति देवर्षे ब्रूहि मादृशो गृहमूढधीः। नारद उवाच, गृहेष्वस्थितो राजन् क्रियाः कुर्वन् गृहोचिताः, वासुदेवार्पणम् साक्षादुपासीत महामुनीन्। शृण्वन् भगवतो भीक्ष्णमवतारकथामृतम्, श्रद्धधानो यथा कालमुपशान्तजनावृतः, सत्सङ्गाच्छनकैः सङ्गमात्मजायात्मजादिषु विमुच्येन्मुच्यमानेषु स्वयं स्वप्नवदुत्थितः। यावदर्थमुपासीनो देहे गेहे च पण्डितः, विरक्तो रक्तवत्तत्र नृलोके नरतां न्यसेत्। ज्ञातय पितरौ पुत्रा भ्रातरः सुहृदोपरे, यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः। दिव्यं भौमं चान्तरिक्षं वित्तमच्युतनिर्मितम्, तत्सर्वमुपभुञ्जान एतत् कुर्यात् स्वतो बुधः। यावत् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम्, अधिकं योऽभिमन्येत सस्तेनो दण्डमर्हति। मृगोष्ट्रखरमर्काखुसरीसृक्खगमक्षिकाः आत्मन पुत्रवत् पश्यैत्तैरेषामन्तरं कियत्। त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि, यथा देशं यथा कालं यावद्दैवोपपादितम्। आश्वाघान्ते वसायिभ्यः कामान् संविभजेद् यथा, अप्येकामात्मनोदारां नृणां स्वत्वग्रहो यतः। जह्याद् यदर्थे स्वप्राणान् हन्याद्वा पितरं गुरुम्, तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन यजतोजितः। कृमिविद्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरं, क्व तदीयरतिर्भार्या क्वायमात्मानभच्छदिः। सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः, शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात्। देवान् ऋषीन् ऋभूतानि पितॄणात्मानमन्वहम्, स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक्। यर्यात्मनोऽधिकाराद्याः सर्वाः सुर्यज्ञसम्पदः, वैतानिकेन विधिना अग्निहोत्रादिना यजेत्। न यज्ञमुखतोऽयं वै भगवान् सर्वयज्ञभुक्, इज्येत हविषा राजन्यथा विप्रमुखे हुतैः। तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः, तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणा ननु। कुर्यादापरपक्षीयं मासि प्रौष्ठपदे द्विजः, श्राद्धं पित्रोर्यथा वित्तं तद्बन्धूनां च वित्तवान्। अयने विषुवे कुर्याद्व्यतिपाते दिनक्षये, चन्द्रादित्योपरागे च द्वादशी श्रवणेषु च, तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके, चतस्रिष्वप्यष्टकासु हेमन्ते शिशिरे तथा, माघे च शितसप्तम्यां मघाराकासमागमे, राकया चानुमत्या द्वामासर्क्षाणि युतान्यपि। द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः, तिसृष्वेकादशी वासु जर्मर्क्षश्रोणयोगयुक्, त एते श्रेयसकाला नृणां श्रेयो विवर्धनाः। कुर्यात् सर्वात्मनैतेषु श्रेयो मोघं तदायुषः, येषु स्नानं जपो होमो व्रतं देवद्विजार्चनम्। पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्, संस्कारकालो जायाय अपत्यस्यात्मनस्तथा, प्रेतसंस्थामृताश्च कर्मण्यभ्युदये नृप। अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहान्, स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते। बिम्बं भगवतो यत्र सर्वमेतच्चराचरम्, यत्र ह ब्राह्मणकुलं तपो विद्यादयान्वितम्, यत्र यत्र हरेरर्चा स देशश्रेयसां पदम्, यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः, सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत। कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः, नैमिषं फाल्गुनं सेतु प्रभासोतकुशस्थली, वाराणसीमसुपुरी पम्पा बिन्दुसरस्तथा, नारायणाश्रमो नन्दा सीतारामाश्रमादयः, सर्वे कुलाचला राजन् महेन्द्रमलयादयः। एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये, एतान् देशान् निषेवेत श्रेयस्कामो यभीक्ष्णसः। धर्मो यत्रेहित पुंसां सहस्रादिफलोदयः, पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः। हरिरेवै कौर्वीश यन्मयं वै चराचरम्, देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु। राजन्यदग्रपूजायां मतः पात्रतयाच्युतः, जीवराशिभिराकीर्ण आण्डकोशाङ्घ्रिपो महान्, तन्मूलत्वादच्युते ज्या सर्वजीवात्मतर्पणम्। पुराण्यनेन सृष्टानि नृतिर्यगृषि देवताः, श्वेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ, तेष्वेषु भगवान् राजन् तारतम्येन वर्तते। तस्मात् पात्रं हि पुरुषो यावान् आत्मा यथेयते, दृष्ट्वा तेषां मिथो नृणाम् अवज्ञानात्मतां नृप। त्रेतादिषु हरेरर्चा क्रियायैकविभिः कृता, ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया। उपासत उपास्तापि नार्षदा पुरुषद्विषाम्, पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः। तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम्। नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः, पुनन्तः पादरजसा त्रिलोकीं दैवतं महत्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।